एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अविरलवृष्टेः कारणेन कैलाली कञ्चनपुर जनपदयोः विभिन्न क्षेत्राणि जलमग्नानि वर्तन्ते। दिनद्वयात् सम्भूतायाः अविरलवृष्टेः कारणेन कैलाली जनपदस्य धनगढ़ी नगरस्य मुख्य मार्गस्य हसनपुर तारानगर शिवनगर क्याम्पस रोड मार्ग प्रवृत्तीनां क्षेत्राणां च सहस्रद्वयाद अधिकानि गृहाणि जलमग्नानि सन्तीति कैलाली जनपद प्रशासन कार्यालयस्य सूचनाधिकारी शिवराज जोशी असूचयत। जलविप्लव प्रभावितेषु क्षेत्रेषु सम्प्रति सुरक्षाकर्मिणः परिचालिताः सन्ति। धनगढ़ी उपमहानगरपालिकायाः सप्तम त्रयोदश क्षेत्रयोः अष्टौ जनान् उद्धृत्य सकुशलं सुरक्षित क्षेत्रेषु स्थानान्तरिताश्च वर्तन्ते। जलविप्लवस्य जलमग्नतायाश्च कारणेन धनगढ़ी क्षेत्रस्य प्राय विद्यालयेषु ह्य सार्वजनिकावकाशः प्रदत्तः आसीत्। अत्रान्तरे सुदूरपश्चिम प्रदेशस्य मुख्यमन्त्रिणा कमल बहादुर शाहेन जलविप्लवेभ्य जलमग्नतायाश्च सुरक्षितं स्थातुम् उच्च सावधानताम् अवलम्बितुं च सर्वे अनुरुद्धाः वर्तन्ते। एवमेव वृष्टेः कारणेन कञ्चनपुरस्य विभिन्न पर्वतीय खरे खोलिकासु नदीषु च जलस्तरस्य वर्धनानन्तरं दश गृह परिवाराः विस्थापिताः वर्तन्ते। विपदजन्य सूचना प्रवाहस्य प्रणाल्या प्रभावकारिण्या सम्पादनस्य विषये कार्यवाहक प्रधानमन्त्रिण प्रकाशमान सिंहस्य संचार सूचना प्रविधि मन्त्रिणश्च पृथ्वी सुब्बा गुरूङ इत्यस्य च मध्ये विमर्शनं सम्भूतमस्ति। नगरीय विकास मन्त्रालये ह्य सम्भूते विमर्शने सूचनाया प्रवाहस्य कृते संचार मन्त्रालयेन कर्तुं समर्थानां कार्याणां विषये विमृष्टम् आसीत्। तस्मिन् क्रमे संचार मन्त्री गुरूङ सम्बद्ध निकायैः विमृश्य आवश्यकः समन्वयः विधास्यते इति अगदत्। तदवसरे कार्यवाहक प्रधानमन्त्रिणा सिम्मेन विपदः समये जलवायु वातावरणस्य पूर्वानुमानस्य सूचना प्रभावकारिणी विहिता सति सम्भावितं संकटं न्यूनीकर्तुं शक्यते, क्षते भवनात् रोद्धुम् महत्वपूर्णा भूमिका च भवतीति च कारणेन सूचना प्रवाहम् प्रभावकारिणम् विधातुम् आवश्यकतास्तीति बलम् दत्तम् आसीत्। रूपन्देही जनपदस्य तृतीय निर्वाचन क्षेत्रस्य प्रतिनिधिसभायाः रिक्त सदस्य पदस्य परिपूर्तये आगामिनः कार्तिक मासस्य सप्तदश दिवसे उपनिर्वाचनम् भविता। निर्वाचन आयोगेन ह्य विज्ञप्तिम् प्रकाश्य उपनिर्वाचनस्य समयः निर्धारितोऽस्ति। रूपन्देही जनपदस्य तृतीय निर्वाचन क्षेत्रात् निर्वाचितस्य प्रतिनिधिसभा सदस्यस्य दीपक बोहरा इत्यस्य गत चैत्र मासस्य एकोनविंशे दिवसे निधनम् सम्भूतम् आसीत् इत्यतः तत्र उपनिर्वाचनम् विधास्यमानम् वर्तते। चितवन जनपदस्य इच्छा कामना ग्रामपालिकायाः पञ्चचत्वारिंशतः चेपाङ परिवारेभ्य गृहाणि हस्तान्तरितानि सन्ति। कोटित्रयस्य ऊनविंशतेर लक्षाणां त्रिषष्टेः सहस्राणां च रूप्यकाणां व्ययेन निर्मितानि गृहाणि हस्तान्तरितानि वर्तन्ते इति ग्रामपालिकायाः अध्यक्ष दानबहादुर गुरूङ असूचयत। इच्छा कामना ग्रामपालिकायाः प्रथमवडा क्षेत्रे सप्त, द्वितीयवडा क्षेत्रे पञ्च, तृतीयवडा क्षेत्रे पञ्च, चतुर्थे वडा क्षेत्रे षट्, पञ्चमवडा क्षेत्रे पञ्च, षष्ठे वडा क्षेत्रे अष्टौ, सप्तमे वडा क्षेत्रे नव च गृहाणि निर्माय हस्तान्तरितानि सन्तीति ग्रामपालिकायाः अध्यक्ष गुरूङ असूचयत। काष्ठमण्डपे सञ्चलत एकोनविंशम् अन्तर्राष्ट्रिय संस्कृत सम्मेलनम् पूर्वेद्यो सम्पन्नमस्ति। अस्यैव आषाढस्य द्वादशे दिवसे राष्ट्रपतिना रामचन्द्र पौडेलेन उद्घाटितं संस्कृत सम्मेलनम् ह्य कमलादिवर्तिनः प्रज्ञा प्रतिष्ठानस्य परिसरे सम्पन्नम् वर्तते। ह्य प्रज्ञा प्रतिष्ठाने आयोजिते समापन समारोहे प्रमुखातिथिरूपेण प्रतिनिधिसभायाः सभामुखस्य देवराज घिमिरेभिदस्य सहभागिता आसीत्। पञ्चदिवसान् यावद् सञ्चलिते सम्मेलने विभिन्नेभ्यः आसंसारम् पञ्चपञ्चाशतो राष्ट्रेभ्यः संस्कृत विदुषाम् सहभागिता आसीत्। यत्र च संस्कृत क्षेत्रस्य अतिविशिष्ट विदुषाम् सहभागितायाम् वाक्यार्थसभा, महिलानाम् वाक्यार्थसभा, भरतनाट्यम्, अनेकविधानाम् अन्येषाम् कार्यक्रमाणाम् च समायोजनम् विहितम् आसीत्।